Nell'ottavo Nuvaka, Rudra è descritto come colui che illumina gli altri dei e conferisce loro potere. Egli è onnipresente nei fiumi sacri e può assolvere da tutti i peccati.
Sairam, oggi impareremo l'ottava e la nona Anuvakam della Namakam e inizieremo col Gananam insieme.
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनश्रण्वन्नोतिभिः सेदसादनम् प्रणो देवे सरस्वतीवाजेभिर्वाजिनीवते धीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ.
This eighth anuvaka is the most important one.
Questa ottava anuvaka è la più importante perché contiene al suo interno il mantra più potente, Namah Shivaya. Quindi andiamo ora con l'ottava anuvaka.
Namah Somaya cha Rudraya cha. Namah Somaya cha Rudraya cha. Namah Somaya cha Rudraya cha. Namah Tamraya cha Runaya cha. Pashupataye cha. Namah Shankaya cha Pashupataye cha. Namah Shankaya cha Pashupataye cha. Namah Ugraya cha Bhimaya cha. Chature Vadhaya cha. Namo Agre Vadhaya cha Dure Vadhaya cha. Namo Agre Vadhaya cha Dure Vadhaya cha. Namo Hantre cha Haniyase cha. Vrikshebhyo Harikeshebhyo. Namo Vrikshebhyo Harikeshebhyo. Namo Vrikshebhyo Harikeshebhyo. Namastaraya. 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 Namashambhave chamayo bhave cha. Shankaraya cha Mayaskaraya cha. Namah Shankaraya cha Mayaskaraya cha. Namah Shankaraya cha Mayaskaraya cha. Namah Shivaya cha Shivataraya cha. Namastitya cha Kulyaya cha. Namastitya cha Kulyaya cha. Namastitya cha Kulyaya cha. Namaparyaya cha Varyaya cha. Namaparyaya cha Varyaya cha.
namah prataranaya chotaranaya cha. Namasikatyaya cha pravahyaya cha.
Nel nono Anuvaka sono celebrati il potere e la forza dei suoi attendenti, i quali illuminano gli dèi, il mondo e controllano le forze dell'universo. Questo Anuvaka viene cantato per ottenere prosperità, un felice nucleo familiare, un lavoro e la benedizione di un figlio devoto.
Ora andiamo alla nona Anuvaka.
Nama Hiranyaya cha Prapatyaya cha. Kim Shilaya Chakshayanaya cha. Namah Kapardine cha Bulastaye cha. Namastalpyaya cha gehyaya cha. Namah प्रक्षिधते च प्रक्षिधते च नमो वक्किरिकेभ्यो केभ्यो नमो विक्षीणकेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमो विचिन्वत्केभ्यो नमो विचिन्वत्केभ्यो नमः आर्हतेभ्यो वत्केभ्यः नमामि वत्केभ्यः नमामि वत्केभ्यः
We will do the sixth and the seventh anuvaka.
Ora faremo la sesta e la settima anuvakas che abbiamo imparato ieri.
Namo jeshtaya cha kanishtaya cha Namo पूर्वजाय च परजाय च नमः पूर्वजाय च परजाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च जघन्याय च बुद्धियाय च नमो जघन्याय च बुद्धियाय च नमो जघन्याय च बुद्धियाय च नमः सोम्याय च प्रतिसर्याय च चक्षेम्याय च
नमो याम्याय च क्षेम्याय च नमो याम्याय च क्षेम्याय च
नमः उर्वर्याय च खल्याय च श्लोक्याय च अवसान्याय च
नमः श्लोक्याय च अवसान्याय च नमः श्लोक्याय च अवसान्याय च
नमो वन्याय च कक्ष्याय च श्रवाय च प्रतिश्रवाय च
नमः श्रवाय च प्रतिश्रवाय च नमः श्रवाय च प्रतिश्रवाय च
नमः आशुषेणाय च आशुरथाय च शूराय च विन्धते च
नमः शूराय च विन्धते च नमः शूराय च विन्धते च
नमो वर्मिणे च वरुधिने च
नमो वर्मिणे च वरुधिने च
cha kavachine cha.
Namo vilmine cha kavachine cha. Namo vilmine cha kavachine cha.
Namah shrutaya cha shrutasenaya cha.
Namah shrutaya cha
Vishnave cha pramrushaya cha.
Namo Vishnave cha pramrushaya cha. Namo Vishnave cha pramrushaya cha.
Namo dutaya cha prahitaya cha. Shangine che shuddhimate cha.
Namo Nishangine che shuddhimate cha. Namo Nishangine che shuddhimate cha.
Namaste kshne shave cha yudhine cha.
Namaste kshne shave cha yudhine cha. Namaste kshne shave cha yudhine cha.
Namasvayudhaya cha sudhanvane cha.
Namasvayudhaya cha sudhanvane cha. Namasvayudhaya cha sudhanvane cha.
Namasrutyaya cha patyaya cha.
Namasrutyaya cha patyaya cha. Namasrutyaya cha patyaya cha.
Namakartyaya cha nipyaya cha.
Namakartyaya cha nipyaya cha. Namakartyaya cha nipyaya cha.
Namasudyaya cha sarasyaya cha.
Namasudyaya cha sarasyaya cha. Namasudyaya cha sarasyaya cha.
Namo nadyaya cha vaishantaya cha.
Namo nadyaya cha vaishantaya cha. Namo nadyaya cha vaishantaya cha.
Namah kupyaya cha vatyaya cha.
Namah kupyaya cha vatyaya cha. Namah kupyaya cha vatyaya cha.
Namo vashyaya cha vashyaya cha.
Namo vashyaya cha vashyaya cha. Namo vashyaya cha vashyaya cha.
Namo mekhyaya cha vidyutyaya cha.
Namo mekhyaya cha vidyutyaya cha.
Idriyaya cha tapyaya cha.
Namah idriyaya cha tapyaya cha. Namah idriyaya cha tapyaya cha.
Namo vatyaya cha reshmiyaya cha.
Namo vatyaya cha reshmiyaya cha.
Vastavyaya cha vastupaya cha.
Namo vastavyaya cha vastupaya cha. Namo vastavyaya cha vastupaya cha.
We will revise the fourth and the fifth anuvakas.
Rivedremo anche la quarta e la quinta anuvakas.
Nama avyadhinibhyo. Vibhyantebhyascha vo namah.
Vibhyantebhyascha vo namah.
उगणाभ्यः त्रिगुंहतेभ्यश्च वो नमः सेभ्यो
नमो गृत्सेभ्यो नमो गृत्सेभ्यो
गृत्सपतिभ्यश्च वो नमः
गृत्सपतिभ्यश्च वो नमः गृत्सपतिभ्यश्च वो नमः
नमो व्रातेभ्यो भ्यश्च वो नमः
भ्यश्च वो नमः भ्यश्च वो नमः
नमो गणेभ्यो
नमो गणेभ्यो नमो गणेभ्यो
गणपतिभ्यश्च वो नमः विश्वरूपेभ्यश्च वो नमः
विश्वरूपेभ्यश्च वो नमः विश्वरूपेभ्यश्च वो नमः
नमो महद्भ्यः
नमो महद्भ्यः नमो महद्भ्यः
क्षुल्लकेभ्यश्च वो नमः रथेभ्यो
नमो रथेभ्यो नमो रथेभ्यो
अरथेभ्यश्च वो नमः
अरथेभ्यश्च वो नमः अरथेभ्यश्च वो नमः
नमो रथे रथपरिभ्यश्च वो नमः
रथपरिभ्यश्च वो नमः रथपरिभ्यश्च वो नमः
नमः सेनाभ्यः सेनानिभ्यश्च वो नमः शत्रुभ्यः
शत्रुभ्यः
संग्रहीतृभ्यश्च वो नमः
संग्रहीतृभ्यश्च वो नमः संग्रहीतृभ्यश्च वो नमः
नमस्तक्षभ्यो रथकारेभ्यश्च वो नमः
रथकारेभ्यश्च वो नमः रथकारेभ्यश्च वो नमः
नमः कुलालेभ्यः
नमः कुलालेभ्यः नमः कुलालेभ्यः
कर्मारेभ्यश्च वो नमः
Abbiamo fatto fino ad ora la nona Anuvaka, faremo la decima e l'undicesima domani. Per oggi finiremo qui.
lokah sukhino